नमस्काराः श्रोतृगणाः, स्वागतमस्ति अत्र भवतां समेषाम् आकाशवाण्याः सम्प्रसारिते संस्कृत साप्ताहिकीति नामके साप्ताहिक कार्यक्रमे। अहमस्मि भवतां मित्रम् उद्घोषकश्च पुनीत त्रिपाठी। तावत् आयान्तु कार्यक्रमस्यास्य शुभारम्भम् ससमयम् कुर्मः। साम्प्रतम् चलामः साधना शर्मणः समीपम्, यो हि स्वीय मधुरकण्ठैः श्रावयति सुभाषितानुभागम्।
अविश्रामम् वहेद्भारम् शीतोष्णम् च न विन्दति, ससन्तोषस्तथा नित्यम् त्रीणि शिक्षेत गर्दभात्।
बिना आराम किए बोझ ढोना, सर्दी गर्मी अर्थात सुख दुख की परवाह न करना, हमेशा संतुष्ट रहना, ये तीनों बातें गधे से सीखनी चाहिए।
द डंकी टीचेस थ्री वर्च्यूज, वेयरिंग बर्डन्स टायरलेसली, एंड्यूरिंग हीट एंड कोल्ड एंड लिविंग विद कंटेनमेंट।
धन्यवाद। अयि भो मित्राणि, कार्यक्रमस्य एतस्य अवन्ध्य रूपतां सफलीकर्तुं प्रसंगानुभागं प्रति सरामः। यत्र हि रिंकू जोशी इत्यनया अवाप्यते एषः प्रभागः।
नमः कृष्णाय नीलाय श्रुतिकण्ठ निभाय च, नमः कालाग्निरूपाय कृतान्ताय च वै नमः। नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च, नमो विशाल नेत्राय शुष्कोदर भयाकृते, नमो पुष्कल गात्राय स्थूल रोमणेथ वै नमः। नमो दीर्घाय शुष्काय कालदंष्ट नमोस्तुते, नमस्ते कोट रक्षाय दुर्नरीक्षाय वै नमः। नमो घोराय रौद्राय भीषणाय कपालिने, नमस्ते सर्वभक्षाय बलिमुख नमोस्तुते, सूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च, अधोदृष्टिः नमस्तेस्तु संवर्तक नमोस्तुते, नमो मन्दगते तुभ्यं निस्त्रिंशाय नमस्तुते, तपसा दग्ध देहाय नित्यं योगरताय च, नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः।
संस्कृतानुरागिणः श्रोतारः, विगत सप्ताहानां वार्ताः आदाय द्रुत वचोभिः स्वीयात्मना कथ्यते साप्ताहिकी वार्ताः। कथं वा प्रसारणं भवति शृण्वस्तावत् सहयोगिनया मुदिता वेतालेन।
रूस राष्ट्रपतिः व्लादिमीर पुतिनः द्विदिवसीय वार्षिक शिखर सम्मेलने प्रतिभागाय नवदिल्लीं सम्प्राप्तः। महिला बाल विकास मंत्री अन्नपूर्णा देवी बाल विवाह मुक्तये द्विदिवसीयं गहन जागरूकता अभियानं प्रारब्धम्। महिला बाल विकास मंत्रालयेन इदम् अभियानं गुरुवासरे शुक्रवासरे च प्रचालितम्। प्रधानमंत्री श्री नरेन्द्र मोदी दिसंबर चतुर्थे दिने अंतर्राष्ट्रीय चीता दिवसे प्रोजेक्ट चीता इत्यस्य साफल्यं संस्मारितम्। अवधेयं यत् गुरुवासरे अयं दिवसः जगति आमानितः। धन्यवादः।
मे श्रेष्ठाः श्रोतृ समूहाः, अधिगत ज्ञानस्य प्रसारम् उत वा ज्ञानी जनानाम् उपदेशः कथम् अवाप्यते, एतस्य कृते सम्मुखागतैः विशिष्ट जनैः गुरुभिः प्राध्यापकैश्च सह साक्षात्कारात् जायते। अस्तु तावत् ज्ञान विज्ञानानुभागेऽस्मिन् अद्य अस्माभिः सह उपस्थितास्ति जामिया मिलिया इस्लामिया विश्वविद्यालये संस्कृत विभागे अध्यापनरता डॉक्टर संगीता शर्मा महोदया। तया सह संवादं विदधाति मम सहयोगी सुरेश चंद्र शर्मा।
योगेन चित्तस्य पदेन वाचाम् मलम् शरीरस्य च वैद्यकेन, योपाकरोत्तम् प्रवरम् मुनीनाम् पतञ्जलिम् प्राञ्जलिरानतोऽस्मि। प्रियाः सुरभारती समुपासकाः श्रोतारः, साक्षात्कार प्रभागे अद्य संवाद विषयो वर्तते योग इति। योग विषये संवादाय आकाशवाण्याम् अद्य अस्माभिः सह समुपस्थिता दिल्लीस्थे जामिया मिलिया इस्लामिया विश्वविद्यालये सहायकाचार्या डॉक्टर संगीता शर्मा। संगीता वर्यायाः आकाशवाणी पक्षतः अहम् सुरेश चंद शर्मा हार्दिकम् अभिनन्दनम् स्वागतञ्च करोमि।
सर्वेभ्यः नमस्कारः। आकाशवाण्याः सर्वेषां सदस्यानां हार्दिकम् अभिनन्दनम्। तेषां साहाय्येन एव रेडियो द्वारा संस्कृत समाचारः प्रसार्यते। अस्मिन् कार्यक्रमे अहम् डॉक्टर सुरेश शर्मा महोदयम् अपि अभिनन्दामि।
मान्यवर्या, संवाद प्रभागस्य एतस्य प्रथमे अंशे प्रश्नः यत् योग विषये भवत्याः प्रथमः अनुभवः कीदृशः आसीत् कृपया ज्ञापयन्तु।
आम्, मम योगयात्रायाः आरम्भः अतीव स्मरणीयः आसीत्। मम योगाभ्यासः प्रायः 20 वर्षेभ्यः पूर्वम् आरब्धः। तदा अहं विद्यालये पठामि स्म, तथा च शारीरिक स्वास्थ्यमेव मम मुख्य लक्षणम् आसीत्। आदौ केवलं स्वास्थ्यस्य कारणेन अहं योगशालां गतवती। अहं चिन्तितवती यत् योगः केवलं कश्चन शारीरिक व्यायामः इति। किन्तु मम प्रथमदिने एव यदा आचार्येण प्राणायाम कारितः, तदा मम सर्वः भ्रम दूरं गतः। श्वास प्रश्वासयोः अवधानं दत्त्वा यदा अहं शान्ततया उपविष्टवती, तदा मम मनः अभूतपूर्वं शान्तम् अभवत्। तदनन्तरम् आसनानाम् अभ्यासं कृतवती। तत्पश्चातं मम शरीरं जडमिव भासते स्म, किन्तु तस्मिन् दिने मया शरीरे एक नवीना ऊर्जा अनुभूता। अतः संक्षेपेण कथयामि चेत् मम योगे प्रथमः अनुभवः केवलं शारीरिक नास्ति, अपि तु स एक आध्यात्मिकः स्पर्शः आसीत्। मम जीवनस्य परिवर्तनबिन्दुः अहं कथितुं शक्नोमि यत् योग अभ्यासात् एव अभवत्।
सम्यक् महोदया। सम्प्रति प्रश्नः यत् योग विषये पातञ्जलि योग सूत्रस्य प्रमुखं महत्वपूर्णं च स्थानं, भवत्याः योग सूत्र विषये संक्षिप्ताः विचाराः।
आम् अवश्यम्। महर्षिः पतञ्जलि योगदर्शनस्य प्रणेता अस्ति। तस्य योगसूत्राणि मानवमनसः गहनं विश्लेषणं कुर्वन्ति। पतञ्जलिः योगस्य परिभाषां केवलम् एकेन सूत्रेण दत्तवान्, योगश्चित्तवृत्तिनिरोधः। अस्य अर्थः अस्ति यत् योगः चित्तस्य वृत्तीनां निरोधः अर्थात् नियन्त्रणम् अस्ति। चित्तवृत्ति किं भवति? अस्माकं मनसि निरन्तरं ये विचाराः, भावनाः, स्मृतयः, कल्पना च चलन्ति, ता एव वृत्तयः। यदा एता वृत्तयः शान्ता भवन्ति, तदा मनुष्यः स्वस्य वास्तविकं स्वरूपं ज्ञातुं शक्नोति। एतं निरोधं प्राप्तुं पतञ्जलि अष्टाङ्गयोगस्य मार्गं दर्शयति। एते अष्टौ अङ्गाः सन्ति यमनियमः। एते सामाजिक वैयक्तिक आचार विचाराः सन्ति। ये जीवनस्य आधारं निर्मन्ति, यथा अहिंसा, सत्यं, शौचं, सन्तोषः च। आसनम् एतत् शरीरं स्थिरं सुखं च करोति, येन ध्यानेन बाधा न भवेत्। प्राणायामः अनेन श्वासस्य नियन्त्रेण प्राणशक्तिः नियन्त्रिता भवति, मनः च शान्तं भवति। अपि च प्रत्याहारः अयम् इन्द्रियाणि बाह्यविषयेभ्यः निर्वर्तयितुम् अभ्यासः अस्ति। अपि च धारणा अस्ति मनसः एकाग्रतायाः आरम्भः, यत्र चित्तम् एकस्मिन् विषये केन्द्रितं क्रियते। ध्यानमध्ये धारणा प्रगाढा भवति। अपि च समाधिमध्ये योगस्य अन्तिमा अवस्था अस्ति, यत्र व्यक्तिः परमात्मना सह एकत्वम् अनुभवति, अपि च कैवल्यम् अनुभवति। अतः पतञ्जले योगः केवलम् आसनं प्राणायाम पर्यन्तं सीमितः नास्ति, अपि तु सः एकः सम्पूर्णः जीवनमार्गः अस्ति, यः अस्मान् शारीरिकात्, मानसाय, मनसात् च आध्यात्मिकस्तराय नयति।
मान्यवर्याः, योग नाम केवलं शारीरिक व्यायाम एव न, अपि तु चित्तशुद्धये मानसिक स्वास्थ्य विषये अपि महत्वपूर्णम् इत्यस्मिन् विषये श्रोतॄन् कृपया ज्ञापयन्तु।
एतत्तु अक्षरशः सत्यम्। मम मते तु योगस्य मुख्यं लक्ष्यं चित्तशुद्धिः एव अस्ति, शरीरं तु केवलं माध्यमम्। यदा वयं विभिन्नम् आसनं कुर्मः, तदा शरीरस्य बलं, नमनीयता, स्वास्थ्यं च वर्धते। एतत् सत्यम्। किन्तु योगस्य वास्तविकः प्रभावः तदा दृश्यते यदा वयं श्वासस्य मनसः च उपरि कार्यं कुर्मः। अहं स्वानुभवेन कथयामि, यदा अहं प्राणायामं ध्यानं च कुर्वती आसम् तदा अहं स्पष्टतया अनुभवं यत् मम मनः अपि निर्मलं भवति। अनेन मम क्रोधः शान्तः भवति, चिन्ता न्यूनता गच्छति तथा च आन्तरिकं स्थैर्यं प्राप्यते। यथा वयं प्रतिदिनं शरीरं स्नानेन स्वच्छं कुर्मः तथैव ध्यानरूपी स्नानेन मनसः मलाः अर्थात् नकारात्मक विचाराः दूरीभवन्ति। वस्तुतः आसनानि अपि चित्तशुद्धौ साहाय्यं कुर्वन्ति। यदा वयं कठिनम् आसनं साधयामः तदा अस्माकं सहनशीलता एकाग्रता च वर्धते। अतः मम दृष्ट्या योगः शरीरस्य मनसः च मध्ये एकः सेतुः अस्ति। स केवलं शरीरस्य रोगाणां निवारणं न करोति अपि तु मनसः विकाराणाम् अपि सर्वोत्तम औषधम् अस्ति। योगेन एव वयं चित्तस्य शुद्धिं प्राप्य जीवनस्य वास्तविकम् आनन्दम् अधिगन्तुं शक्नुमः।
आदरणीय महोदये, अद्यतन जीवने व्यस्त समाजे च योगः केन प्रकारेण सर्वोत्तम औषधिरूपेण स्थानं सन्धारयति? योगस्य स्थानं कीदृशं कृपया ज्ञापयन्तु।
अद्यतनजीवने योगस्य स्थानं न केवलं महत्वपूर्णम् अपि तु अनिवार्यमस्ति इति अहं मन्ये। पश्यन्तु, अद्य सर्वे जनाः स्वकार्येषु निमग्नाः सन्ति, तेषां जीवने वेगः अस्ति किन्तु शान्तिः नास्ति। अस्मिन् वेगयुक्ते समाजे तनावः, चिन्ता, अवसादः इत्यादयः मानसाः रोगाः वर्धन्ते। जनानां समीपे धनम् अस्ति, सुविधाः सन्ति किन्तु स्वास्थ्यं सुखं च नास्ति। अस्यां स्थितौ योगः एव अमृतसदृशः उपायः अस्ति। योगः अस्मान् अस्याः धावन्याः किञ्चित् विरामं ददाति। यदि कश्चित् व्यक्ति प्रतिदिनं केवलं 20 निमेषान् अपि योगाय ददाति तर्हि सः महान् परिवर्तनम् अनुभवितुं शक्नोति। अहं मन्ये यत् योगः आधुनिकजीवनशैल्या दुष्परिणामेभ्यः रक्षितुम् एकं सुरक्षाकवचम् एव अस्ति। स न केवलम् अस्मान् शारीरिक मानसिकरूपेण स्वस्थं करोति अपि तु जीवनं कथं जीवेम इति अपि शिक्षयति। अद्य जीवने योगविलासः न अपि तु आवश्यकता अस्ति। स स्वस्थसमाजस्य निर्माणाय एकः अनिवार्यघटकः अस्ति इति।
भवत्या योगविषये प्रतिपादितैः शास्त्रविदवचोभिः वयम् अनुगृहीताः धन्याः। पौनःपुन्येन भवत्यै हार्दाः धन्यवादाः, सादरं प्रणामाः, नमो नमः।
सर्वेभ्यः श्रोतृभ्यः धन्यवादः, सर्वेभ्यः नमस्कारः। जयतु भारतं, जयतु संस्कृतम्।
श्रोतारः, सम्प्रति चलामः ऋचायाः समीपे। सा श्रावयति यत् संस्कृत जगति किं किम् अभवत्, किं किं भविष्यति। आयान्तु श्रूयन्ताम् संगोष्ठिषु कार्यशालासु किं किं जातम्।
काश्याम् 19 वर्षीयः देवव्रत महिषरेखे इत्येषः दण्डक्रम पारायणं कृत्वा इतिहासं रचितवान्। महाराष्ट्रस्य असौ युवा वैदिक साधकः अद्वितीय साधना पुरस्सरम् अथ अद्भुत स्मरण शक्त्या शुक्लयजुर्वेदस्य माध्यन्दन शाखायाः 2000 मन्त्रान् कण्ठस्थीकृत्य दण्डक्रम पारायणं 50 दिनेषु विनावरोधं सम्पूरितवान्। प्रधानमन्त्री नरेन्द्र मोदी, उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ च तस्मै शुभकामनाः प्रदत्तवन्तौ। भारतीय संस्कृतेः रिक्थभूतः ग्रन्थविशेषः अस्ति श्रीमद्भगवद्गीता। यथा जानीमो एव वयं यत् अनतिचिरमेव श्रीमद्भगवद्गीता जयन्ती समारोहः आचरितं गतः। अस्मिन् शुभावसरे अनेकेषु महाविद्यालयेषु विश्वविद्यालयेषु च गीतामहोत्सवम् आलक्ष्य विशिष्ट कार्यक्रमाः सञ्जाताः। ध्यानास्पदं वर्तते यत् अस्मिन् शुभावसरे ईरान देशस्य तेहरान नगर स्थिते स्वामी विवेकानन्द सांस्कृतिक केन्द्रे अपि गीता महोत्सवम् आधृत्य विशिष्टं समायोजनम् अनुष्ठितमासीत्। भारतीय ज्ञान परम्परायाः प्रचार प्रसारम् अभिलक्ष्य वेव्स इति वाइड एसोसिएशन फॉर वैदिक स्टडीज इत्याख्या संस्था न केवलं देशे अपि तु वैश्विक स्तरे अनेके कार्यक्रमान् आयोजयति। सद्यः एव अनया संस्थया दिसम्बर मासस्य 4th दिनाङ्कादारभ्य 6th दिनाङ्कपर्यन्तं स्वीयं 29वं सम्मेलनं समायोजितम्। दिल्ली विश्वविद्यालयेन मिरांडा हाउस महाविद्यालयेन समं सम्मिल्य सम्मेलनमेतत् समायोजितम्। अस्य सम्मेलनस्य विषयः आसीत् समसामयिके विश्वे शिक्षा नैतिकतायै च वैदिक ज्ञान परम्परायाः प्रासंगिकता। सम्मेलने अस्मिन् नैके गणमान्याः विद्वांसः आचार्याः प्राध्यापकाः शोधार्थिनः च सम्मिलिताः आसन्। दिल्ल्याः केन्द्रीय संस्कृत विश्वविद्यालयस्य सहयोगेन संस्कृत संवादः इति पाक्षिक संस्कृत समाचार पत्रं तथा दिल्लीस्थ श्रीलाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य व्याकरण विभागः इत्यनयोः संयुक्त तत्वावधाने संस्कृत पत्रकार सम्मेलनं समायोजितम्। द्विदिवसीयम् इदं राष्ट्रिय सम्मेलनं दिसम्बर मासस्य त्रिचतुर्थ दिनांकयोः जातम्। अस्मिन् सम्मेलने नैके विद्वांसः पत्रकाराश्चापि उपस्थिताः आसन्।
आशां कुर्मः भवद्भिः दिग्दर्शन प्रभागे समुदीरिताः कार्यक्रमाः लिखिताः अंकिताश्च। यदि केनापि जनेन न लिखितं तस्य कृते तु मम एका एव वार्ता अस्ति, आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपो। आहा, अवगम्यते न वा? चलामस्तावत् एकां कथामपि अनेन शीर्षकेणैव श्रावयति बालवल्लरि प्रभागे सुषमा कुमारी।
बाल मनोवल्लर्याम् अद्य वयम् एकेन वार्तालाप माध्यमेन आलस्यं हि मनुष्याणां शरीरस्य महान् रिपुः इत्यस्मिन् विषये जानीमः। छात्राः, अत्र पुत्रः वदति, मातः अद्य तु अवकाशदिनमस्ति, अद्य अहं सम्पूर्णदिने विश्रामं करिष्यामि। माता वदति अत्र अवकाशः विद्यालयस्य अस्ति पुत्र, न तु स्वाध्यायस्य। बहु आलस्यं करोषि, उत्तिष्ठ, परिश्रमं कुरु। बालकः वदति अहम् उत्तीर्णः भविष्यामि, किम् अधिकेन परिश्रमेण? माता वदति यः परिश्रमं करोति सः एव जीवने सफलतां प्राप्नोति पुत्र, परिश्रमः एव मनुष्यस्य मित्रमस्ति, आलस्यं तु शत्रुः इव अस्ति। पुत्रः वदति तत् कथं मातः? माता वदति यदि ज्ञातुम् इच्छसि तर्हि एकस्य श्लोकस्य पाठं करोमि अहम्। आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः, नास्ति उद्यम समो बन्धुः, यं कृत्वा न अवसीदति इति।
अस्माकम् ऐक्यभावयुताः श्रोतृगणाः अतीव दुष्कर मनोरथानां पूर्त्यर्थं स्मृतौ लिखितमस्ति साधनमेकम्। श्रेष्ठम् अपि च मनोरथानां पूर्तये पारस्परिक सहयोगः, घनिष्ठता, ऐक्यभावश्च अपेक्षिता वर्तन्ते। अस्तु, एकभारत श्रेष्ठ भारत इत्याख्ये प्रभागेपि नानाविधानि वाक्यानि ऐक्यभावयुतासु भाषासु कथ्यते। मम सहयोगी ललितमोहनः तिवारी।
प्रथमं वाक्यमस्ति, अन्ताराष्ट्रिय दिव्याङ्ग दिवसः प्रतिवर्षं दिसम्बर मासस्य तृतीय दिवसे आचर्यते। अन्ताराष्ट्रिय दिव्याङ्ग दिवस हर वर्ष 3 दिसम्बर को मनाया जाता है। ओडिया भाषा में अन्ताराष्ट्रिय दिव्याङ्ग दिवस प्रतिवर्ष 3 दिसम्बर रे पालन करा जाए। द्वितीयं वाक्यम अस्ति, अस्मिन् दिने समाजे समान अवसराणां समावेशनश्च सन्देशः दीयते। इस दिन समाज में समान अवसर और समावेशन का संदेश दिया जाता है। ओडिया भाषा में एही दिने समाज रे समान अवसर आउ समावेशन रा संदेशः दिया जाए। तृतीयं वाक्यम अस्ति, एषः दिवसः दिव्याङ्ग जनानां सम्मानाय भवति, यह दिन दिव्याङ्ग लोगों के सम्मान के लिए होता है। उड़िया भाषा में यही दिना दिव्यांग लोकों का सम्मान पाइंग पालन करा जाए।
मित्राणि, स्वागता गमन वेला, तथापि चिंता मास्तु, आगामी सप्ताहे पुनः अस्मिन् एव काले नूतनम् अंकम् आदाय पुनः मिलिष्यामः। भवन्तः सर्वे स्वीय जिज्ञासां प्रतिपुष्टि प्रक्रियां अस्मभ्यं प्रेषितुं शक्नुवन्ति। अस्माकं ईमेल संकेतो वर्तते nsd@gmail.com इति। पुनर्मिलामः इत्युक्त्वा विरमामि, नमामि च। जयतु संस्कृतम्, जयतु भारतम्। नमो नमः।